कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन् नोतिभिः सेधसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनेवते धीनाम वित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता विचाकशेः यामिषुम् गिरिशम् तहस्ते विभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्चा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्भयन् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रुता सहस्रशो वैशागुम् हेड इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराद्ययोर्ज्याम् यास्य ते हस्त इषव पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निशङ्गतिः या तेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाददाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्रुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनाम् पतये नमो नमः ककुवाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमस्विकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरभ्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमः तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्ति भ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षव्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha rudraya cha nama sarvaya cha pashupataye cha nama nilagrivaya cha shitikanthaya cha nama pravardine cha yuktakeshaya cha nama sahasrakshaya cha shatadhanvane cha namo girishaya cha shibivishtaya cha namo मेरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः शोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वबिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो ऋष्णवे च प्रमृषाय च नमो द्यूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कात्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हरियसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्त्याय च कोल्याय च नमः भार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च पेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्व्याय च नम पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नम आखिलते च प्रखिलते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कवर्दिने क्षयद्वेराय प्रवरामहे मतिम् यता नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् गामे अस्मिन्ननातुरम् नृणानो रुद्रो तनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्चम् जयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्रनीरिषः मानस्तोके तन ये मान आयुषि मानो गोषु मानो अश्वेषु नीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अदितदेव ब्रूयदा च नः शर्म यच्च द्विवर्हाः स्तुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् नृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणत्व परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मेडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्यम् वसान आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव एतयः तासामीशानो भगव पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अदि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचरा नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विरोहिताः ये भूतानामधिपतयो विशिखास कवर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पथाम् पथिरक्षय ऐलवृदा यव्युधः ये तीर्थानि प्रचरन्ति श्रीकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसस्य दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वरुषमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशो देचीर्दशोन्मात्तेभ्यो नमस्ते नो मृडयन्तु तेयं विष्मो यश्च नो वेष्टितं भोजं मे ददामि त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मोक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतं पाशा मृत्योर्मत्या यहन्तवे तान्यज्ञस्य मायया सर्वा नवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः एनानेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्वे पाहि तमस्तु हि यस्विश्वस्वतन्वायो विश्वस्य क्षयति वे सदस्य यक्ष्वा महेशौ मनसाय रुद्रं नमो भिर्देवमसुरं दुवस्य अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्ववेशजो यगुं शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ सं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञातं च मे सोश्च मे रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे धीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुं राजा अप्येषागस्तमतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमय्यमस्य जम्भयोः आदधामि तथा हि तत् खन्फन्म्रसि ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा ಶನ್ನ ಇಂದ್ರೋ ಬೃಹಸ್ಪತಿ ಶನ್ನೋ ವಿಷ್ಣುರುಕ್ರಮ ನಮೋ ಬ್ರಹ್ಮಣೇ ನಮಸ್ತೆ ವಾಯೋ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮ ವದಿಷ್ಯಾಮಿ ಋತಂ ವದಿಷ್ಯಾಮಿ ಸತ್ಯಂ ವದಿಷ್ಯಾಮಿ ತನ್ಮಾಮವತು ತದ್ಭಕ್ತಾರಮವತು ಅವತು ಮಾಂ ಅವತು ಭಕ್ತಾರಂ ಓಂ ಶಾಂತಿ 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 ಶೇಷಾಂ ವ್ಯಾಖ್ಯಾಸ್ಯಾಮಃ ವರ್ಣಸ್ವರಃ ಮಾತ್ರಾಬಲಂ ಸಾಮಸಂತಾನಃ ಇತ್ಯುಕ್ತಕ್ಷೇಕ್ಷಾಧ್ಯಾಯಃ ಸಹ ನೌ ಯಶಃ ಸಹ ನೌ ಬ್ರಹ್ಮವರ್ಚಸಂ ಅಥಾತ ಸಗುಂಹಿತಾಯ ಉಪನಿಷದಂ ವ್ಯಾಖ್ಯಾಸ್ಯಾಮಃ ಪಂಚಸ್ವಧಿಕರಣೇಷು ಅಧಿಲೋಕಮಧಿಜ್ಯೋತಿಷಮಧಿವಿದ್ಯಮಧಿ ಪ್ರಜಮಧ್ಯಾತ್ಮಂ ತಾಮಃ ಸಗುಂಹಿತ ಇತ್ಯಾಚಕ್ಷತೆ ಅತಾಧಿಲೋಕಂ ಪೃಥಿವೀ ಪೂರ್ವರೂಪಂ ದ್ಯೌರುತ್ತರರೂಪಂ ಆಕಾಶಸ್ಸಂಧಿಃ ವಾಯುಸ್ಸಂಧಾನಂ ಇತ್ಯಧಿಲೋಕಂ ಅಥಾಧಿಜ್ಯೋತಿಷಂ ಅಗ್ನಿಪೂರ್ವರೂಪಂ ಆದಿತ್ಯ ಉತ್ತರರೂಪಂ ಆಪಸ್ಸಂಧಿಃ ವೈದ್ಯುತಸ್ಸಂಧಾನಂ ಇತ್ಯಧಿಜ್ಯೋತಿಷಂ ಅಥಾಧಿವಿದ್ಯಂ ಆಚಾರ್ಯಪೂರ್ವರೂಪಂ ಅಂತೇವಾಸ್ಯುತ್ತರರೂಪಂ ವಿದ್ಯಾಸಂಧಿಃ ಪ್ರವಚನಗುಂಸಂಧಾನಂ ಇತ್ಯಧಿವಿದ್ಯಂ ಅಥಾಧಿಪ್ರಯಂ ಮಾತಾಪೋರ್ವರೂಪಂ ಪಿತೋರುತ್ತರರೂಪಂ ಪ್ರಜಾಸಂಧಿಃ ಪ್ರಜನನಗುಂಸಂಧಾನಂ ಇತ್ಯಧಿಪ್ರಯಂ ಅಥಾಧ್ಯಾತ್ಮಂ ಅಧರಾಹನುಪೋರ್ವರೂಪಂ ಉತ್ತರಾಹನುರುತ್ತರರೂಪಂ ವಾಕ್ಸಂಧಿಃ ಜಿಹ್ವಾಸಂಧಾನಂ ಇತ್ಯಧ್ಯಾತ್ಮಂ ಇತಿ ಮಾ ಮಹಾಸಗುಂಹಿತಾಃ ಯೇವಮೇತಾ ಮಹಾಸಗುಂಹಿತಾ ವ್ಯಾಖ್ಯಾತಾ ವೇದಾ ಸಂಧೀಯತೆ ಪ್ರಜಯಾ ಪಶುಭಿಃ ಬ್ರಹ್ಮವಚ್ಚಸೇನಾನ್ನಾದ್ಯೇನ ಸುವರ್ಗೇಣ ಲೋಕೇನ ಯಶ್ಚಂದಸಾ ವೃಷಭೋ ವಿಶ್ವರೂಪಃ ಛಂದೋಭ್ಯೋಧ್ಯಮೃತಾತ್ ಸಂಭಭೂವ ಸಮೇಂದ್ರೋ ಮೇಧಯಾ ಸ್ಪೃಣೋತು ಅಮೃತಸ್ಯ ದೇವಧಾರಣೋ ಭೂಯಾಸಂ ಶರೀರಂ ಮೇ ವಿಚಕ್ಷಣಂ ಜಿಹ್ವಾ ಮೇ ಮಧುಮತ್ತಮಾ ಕರ್ಣಾಭ್ಯಾಂ ಭೂರಿ ವಿಶ್ರುವಂ ಬ್ರಹ್ಮಣ ಕೋಶೋಸಿ ಮೇಧಯಾ ಪೀತಃ ಶ್ರುತಂ ಮೇ ಗೋಪಾಯ ಆವಹಂತಿ ವಿತನ್ವಾನ ಕುರ್ವಾಣ ಶೀಲಮಾತ್ಮನಃ ವಾಸಾಗುಂಸಿ ಮಮ ಗಾವಶ್ಚ ಅನ್ನಪಾನೇ ಚ ಸರ್ವದಾ ತತೋ ಮೇ ಶ್ರಿಯಮಾವಹ ಲೋಮಶಾಂ ಪಶುಭಿಃ ಸಹ ಸ್ವಾಹಾ ಆಮಾಯಂತು ಬ್ರಹ್ಮಚಾರಿಣ ಸ್ವಾಹಾ ವಿಮಾಯಂತು ಬ್ರಹ್ಮಚಾರಿಣ ಸ್ವಾಹಾ ಪ್ರಮಾಯಂತು ಬ್ರಹ್ಮಚಾರಿಣ ಸ್ವಾಹಾ ನಮಾಯಂತು ಬ್ರಹ್ಮಚಾರಿಣ ಸ್ವಾಹಾ ಶ್ರಮಾಯಂತು ಬ್ರಹ್ಮಚಾರಿಣ ಸ್ವಾಹಾ ಯಶೋಜನೇ ಸಾ ನಿಸ್ವಾಹಾ ಶ್ರೇಯಾನ್ವಸ್ಯ ಸೋ ಸಾ ನಿಸ್ವಾಹಾ तम् त्वा भग प्रविशाणि स्वाहा
क्षमा भग प्रविशा
स्वाहा तस्मिन् सहस्रशाके नैव गाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ति यथा मासा अहज्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापज्ञस्व भोर्भुवः सुवर्ति वा एतास्तिस्रो व्याहृतयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येण वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वारुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वे एस्मै देवा भयमावहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोशेषकपाले भूरित्यग्नौ प्रतितिष्ठति भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् यदि प्राचीनयोग्योपास्वा पृथिव्यन्तरिक्षम् ज्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक चर्ममागुम् तद्गस्तावास्ति मज्जा एतदधिविधाय ऋषिरवोचत् पान्तम् वा इदगुम् सर्वम् पान्ते नैव पाण्डग्नस्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्मरा अप्यो श्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ఓగుం సోమితి శస్త్రాణి సగుం సంతి ఓమిత్యద్భర్యు ప్రతిగరం ప్రతిగృణాతి ఓమితి బ్రహ్మా ప్రసౌతి ఓమిత్యగ్నిహోత్రమనుజానాతి ఓమితి బ్రాహ్మణ ప్రవక్షన్నాః బ్రహ్మోపాప్నవానేతి బ్రహ్మైవోపాప్నోతి ఋతం చ స్వాధ్యాయ ప్రవచనే చ సత్యం చ స్వాధ్యాయ ప్రవచనే చ తపశ్చ స్వాధ్యాయ ప్రవచనే చ నమశ్చ స్వాధ్యాయ ప్రవచనే చ శమశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నయశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నిహోత్రం చ స్వాధ్యాయ ప్రవచనే చ అతిథయశ్చ స్వాధ్యాయ ప్రవచనే చ మానుషం చ స్వాధ్యాయ ప్రవచనే చ ప్రజా చ స్వాధ్యాయ ప్రవచనే చ ప్రజనశ్చ స్వాధ్యాయ ప్రవచనే చ ప్రజాతిశ్చ స్వాధ్యాయ ప్రవచనే చ సత్యమితి సత్యవచారాథీతరః తమైతి తపో నిత్య పౌరుషిష్టిః స్వాధ్యాయ ప్రవచనే ఏవేతి నాకో మౌద్గల్యః తద్ధి తపస్తద్ధి తపః అహం వృక్షస్య రేరివ కీర్తిం పృష్ఠం గిరేరివ ఊర్ధ్వపవిత్రో వాజినీవ స్వమృతమస్మి ద్రవిణగుంసవచ్చసం సుమేధా అమృతోక్షితః ఇది త్రిశంకో వేదానువచనం వేదమనోచ్యాచార్యో అంతేవాసినమనుశాస్తి సత్యం వద ధర్మం చర స్వాధ్యాయాన్మ ప్రమదః ఆచార్యాయ ప్రియం ధనమాహృత్య ప్రజాతంతుం మా వ్యవచ్ఛేత్సి సత్యాన ప్రమదితవ్యం ధర్మాన ప్రమదితవ్యం కుశలాన ప్రమదితవ్యం భూత్యైన ప్రమదితవ్యం స్వాధ్యాయ ప్రవచనాభ్యాం న ప్రమదితవ్యం దేవపితృకార్యాభ్యాం న ప్రమదితవ్యం మాతృదేవో భవ పితృదేవో భవ ఆచార్యదేవో భవ అతిథిదేవో భవ యాన్యనవద్యాని కర్మాణి తాని సేవితవ్యాని నో ఇతరాణి యాన్యస్మాకం సుచరితాని తాని త్వయోపాస్యాని నో ఇతరాణి ఏకే చాస్మత్రేయాగుంసో బ్రాహ్మణాః తేషాం త్వయాసనేన ప్రశ్వసితవ్యం శ్రద్ధయా దేయం అశ్రద్ధయా దేయం శ్రియా దేయం శ్రియా దేయం భియా దేయం సంవిదా దేయం అరయరితి కర్మ విచికిత్స వృత్త విచికిత్స వా స్యాత్ ఏతత్ర బ్రాహ్మణా సమ్మర్షిణః యుక్తా ఆయుక్తా అలోక్షా ధర్మకామాస్యుః యథా దే తత్ర వర్తేరన్ తథా తత్ర వర్తేతాః అనామ్యాఖ్యాతేషు ఏతత్ర బ్రాహ్మణా సమ్మర్షిణః యుక్తా ఆయుక్తాః అలోక్షా ధర్మకామాస్యుః యథా దేతేషు వర్తేరన్ తథా తేషు వర్తేతాః ఏష ఆదేశః ఏష ఉపదేశః ఏషా వేదోపనిషత్ ఏతదనుశాసనం ఏవముపాసితవ్యం ఏవముచైతదుపాస్యం షన్నో మిత్రశ్యం వరుణః షన్నో భవత్వర్యమా షన్న ఇంద్రో బృహస్పతిః షన్నో విష్ణురుక్రమః नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मावादिशं ऋतमवादिशं सत्यमवादिशं तन्मामावेत् तद्भक्तारमावेत् आवेन्माम् आवेद्भक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन्वदसृजता तदकामयता समात्मना पद्येति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुं होत प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तं वा एषम् दशहूतगुं सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्ष प्रिया हि वहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुं होत प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तं वा एतं सप्तहूतगुं सन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुं होत प्रत्यशृणोत् षड्ढूतो भवत् षड्ढूतो हवैनामैषः तं वा एतं षड्ढूतगुं सन्तम् षड्ढूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुं होत प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैनामैषः तं वा एतं पञ्चहूतगुं सन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुं होत प्रत्यशृणोत् स चतुर्होतो भवत् चतुर्होतो हवैनामैषः तं वा एतं चतुर्होतगुं सन्तम् चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वहि देवाः तमब्रवीत् तं वै मेनेदिष्टगुं होत प्रत्यश्रौषेः त्वयेनाख्यातारयति तस्मान्नु हैनागुश्चतुर्होतार इत्याचक्षते तस्माच्चुश्रौष पुत्राणागुं हृद्यतमः नेदिष्टो हृद्यतमः नेदिष्टो ब्रह्मणो भवति य एवं वेद आत्मने नमः ॐ शान्ति शान्ति शान्तिः सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगुं हरतु मे पापं दुर्वा दुःस्वप्ननाशनी काण्डात् काण्डात् प्ररोहन्ति परुषः परुषः परि एवानो दूर्वे प्रदनु सहस्रेण शतेन च या शतेन प्रतनोऽसि सहस्रेण विरोहसि तस्यास्ते देवीष्टके विधेमः विशा वयम् అశ్వక్రాంతి రథక్రాంతి విష్ణుక్రాంతి వసుంధరా శిరసా ధారయిష్యామి రక్షస్వ మాం పదే పదే స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహిం మహిషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.